गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र परिमाणं परिमाणस्य तत्र लक्षणवाक्यं गतवर्गे पठितवन्तः तत्र परिमाणस्य त्रैविध्यं तत्र विभागत्रयम् अस्ति तत्र वयं तत्र अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति पूर्वं दृष्टवन्तः यद्यपि तत्र मूलग्रन्थे तत्र अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति तत्र चतुर्विधम् उक्तमस्ति किन्तु वयं तत्र परिमाणस्य अन्यरीत्या विभागः अपि भवति इति तत्र दृष्टवन्तः तत्र अणुपरिमाणं मध्यमपरिमाणम् अपि तत्र परममहत्परिमाणम् इति दृष्टवन्तः निमिष इति दृष्टवन्तः तत्र तत्र अणुपरिमाणं मध्यमपरिमाणं परममहत्परिमाणम् इति अत्र पुस्तके गतवर्गे एतत् वयं पठितवन्तः तत्र आद्यन्तिमयोः कुत्रापि परिमाणं प्रति न कारणत्वं नाम परमाणोः परिमाणं प्रति अपि तत्र परममहत्परिमाणं प्रति कारणत्वं नास्ति नाम तस्य कारणमेव नास्ति नाम अणु तत्र पार्थिवपरमाणो अस्ति चेत् तत्र नित्यपदार्थः इति कृत्वा तत्र तस्य कारणं किमपि अस्ति इति न वक्तुं शक्नुमः कारणत्वं केवलं तत्र अनित्यवस्तूनाम् एव तत्र कारणत्वं वक्तुं शक्नुमः तत्र नित्यम् अस्ति चेत् तस्य कारणम् अस्ति इति अपि तत्र किमपि न वक्तुं शक्नुमः तर्हि तत्र परमाणु नित्यमस्ति तस्मिन् विद्यमानपरिमाणम् इति गुणः अपि नित्यमस्ति इति कृत्वा तत्र तस्य कारणम् अस्ति इति न वक्तुं शक्नुमः इति केवलं तावदेव उक्तं किन्तु तस्य अस्मिन् विषये स्पष्टता भवेत् इति कृत्वा तत्र करपत्रं रचितमस्ति स्वरूपमहोदयेन तर्हि अद्य तत्र परिमाणे कारणत्वम् इति पठामः तत्र एतादृशमेव अस्ति तत्र अत्र पठितुं न शक्नुवन्ति चेत् तत्र ईमेल् द्वारा अहं लिङ्क् प्रेषित लिङ्क् अस्ति तत्र गत्वा तत्र पठितुं शक्नुवन्ति इति मन्ये यतोहि तत्र अहं केवलं कापि इति कृतवान् तत्र फाण्ट् तु बृहत् नास्ति यदि बृहन् भवति चेत् तत्र प्रायशः तत्र न दृश्यते इति मन्ये हा तर्हि तत्र किन्तु ईमेल् मध्ये तत्र लिङ्क् अस्ति कृपया तत्र लिङ्क् क्लिक् कृत्वा तत्र पठनसौकर्याय तत्र लिङ्क् क्लिक् करोति चेत् सुलभं भवति इति मन्ये तर्हि तत्र परिमाणे कारणत्वम् इति
महोदय क्षम्यताम् ओ अस्तु इदानीं प्राप्तं करपत्रम् इति
सर्वेषां पार्श्वे अस्ति वा करपत्रम् इदानीम् ईमेल् मध्ये अस्ति आदौ एव तत्र करपत्रम् इति एकं लिङ्क् अस्ति तत्र कृपया तत्र लिङ्क् क्लिक् कृत्वा पार्श्वे अस्ति चेत् सुलभं भवति अस्तु सर्वे प्राप्तवन्तः अस्तु समीचीनं तर्हि तत्र अस्तु तर्हि शुभदा भगिनी भवती एव तत्र प्रथमपरिच्छेदं पठतु भगिनी सुलभमस्ति अतः भवती पठतु
अस्तु महोदय परिणामे कारणत्वम् अणुपरिमाणस्य पुनः परममहत्परिमाणस्य कुत्रापि कारणत्वं नास्ति मध्यमपरिमाणं भवति स्वाश्रयजन्यद्रवस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणं किन्तु अणुपरिमाणस्य पुनः परममहत्परिमाणस्य च तथा न भवति। तावदेव खलु?
हा सत्यं भगिनि। हा तत्र प्रथमवाक्यं यत् पुस्तके अस्ति यत् अवगच्छति वदतु तत्र नाम।
महोदय अहं बहुकालानन्तरम् आगतवती,
किञ्चित् परिमाणस्य त्रैविध्यम् अस्ति। एकमस्ति अणुपरिमाणं, लघु 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 इति अणुपरिमाणम्, अणु इव अस्ति। अपि अन्यत् अस्ति तत्र परमाणवः, आटम्स् इति। अपि पुनः परममहत् परिमाणम्, आकाशः, आकाशस्य परिमाणं परममहत् परिमाणं, तत्र तेषां कारणं नास्ति इति उक्तम्। एतद् वाक्यं पुस्तकात् स्वीकृतम्। मध्यमपरिमाणं भवति स्व आश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायीकारणम् इति एतस्य वाक्यस्य विश्लेषणम् अग्रे भवति। तत्र मध्यमपरिमाणं, तत्र घटस्य परिमाणं प्रति कारणम् अस्ति वा इति, अस्ति चेत् कथम् इति, एतत् सर्वम् अग्रे तत्र तस्य विषये चर्चा भवति। किन्तु अणुपरिमाणस्य पुनः परममहत्परिमाणस्य च तथा न भवति, नाम कारणत्वं नास्ति,
तेषां
कारणं नास्ति, तेषां तत्र नित्यम् अस्ति इति कृत्वा कारणमस्ति इति न वक्तुं शक्नुमः। अतः तत्र किन्तु यद्य तत्र अस्य अपि अस्य विश्लेषणम् अग्रे भवति। अतः तत्र केवलं विषयस्य उद्घाटनं।
अस्तु
अस्तु अस्तु, समीचीनं, धन्यवादः भगिनि। हा अस्तु, इदानीम् अग्रे अग्रे सरामः तर्हि। तर्हि तत्र अशोक महोदय अग्रे पठति वा घटस्य इति?
अस्तु महोदय, किन्तु मम एकः प्रश्नः अस्ति, अणु परिमाणस्य कारणत्वं नास्ति चेत् तत् कारणं नास्ति इति अर्थः खलु?
सत्यं महोदय, नाम तत्र
अन्य पदार्थस्य कारणं भवितुम् अर्हति।
सत्यं सत्यं, तत्तु समीचीनं, हा 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 हा, तत्तु भवति एव, अग्रे द्रक्ष्यामः। सत्यं, तस्य कारणं नास्ति किन्तु तत् अन्यं प्रति कारणं भवितुम् अर्हति एव, सत्यं।
किन्तु एतद् द्वितीयतृतीयवाक्ये, द्वितीयवाक्ये मध्यमपरिणामं भवति स्व आश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणम् इति। अतः यदि मध्यमपरिमाण नाम कपाले
परिमाणम् अस्ति,
कपालः घटं भवति, अतः
कपालस्य
परिमाणं घटस्य परिणामं प्रति कारणम् अस्ति
इति अस्ति। सत्यं महोदय, तदेव, सा एव वार्ता, सा एव वार्ता।
किन्तु तृतीयवाक्ये, किन्तु अणुपरिमाणस्य पुनः परममहत्परिमाणस्य च तथा न भवति इति उक्तम्। अतः यदि वयं द्वे परमाणुवात् परमाणु
गुरुः गुरुः गुरवः अथवा द्वयणुकं
कृत्वा चेत् द्वयणुकं प्रति परमाणोः कारणत्वं नास्ति इति लिखितं वा? तद् न सत्यं नास्ति,
न केवलं तत्र महोदय, नाम तत्र कारणत्वं नास्ति इति एव तत्र फलितार्थः, अग्रे द्रक्ष्यामः। सर्वं तत्र स्पष्टतया लिखितमेव अग्रे, इदानीं केवलम् उद्घाटनम्। अतः तत्र प्रश्नः किञ्चित् अग्रे, प्रश्नस्य उत्तरम् अग्रे भवति इति मन्ये।
अस्तु, घटस्य अवयवः कपालः, कपालस्य पुनः अवयवः कपालिका, चतुरणुकं त्र्यणुकं, त्र्यणुकात् आरभ्य घटपर्यन्तं यानि द्रव्याणि वर्तन्ते महोदय प्रथमभाग तेषां सर्वेषां मध्यमपरिमाणं घटे यत् मध्यमपरिमाणम् उत्पन्नं तत् कथम् उत्पन्नं इत्युक्तौ कपाले विद्यमानं परिमाणं तस्मात् घटे तस्मादिति मध्यम महोदय कश्चित् लघु कर्तुं शक्नुमः वा
लघु लघु एव भवति
सर्वं दर्शयामः कुत्र अहं
तत्र भवान् अत्र पठति वा अथवा तत्र लिङ्क् मध्ये पठति वा इति न ज्ञातवान्
अहं न प्राप्नोमि लिङ्क् न प्राप्नोमि
ओ इति वा महोदय अस्तु अस्तु अहं तत्र प्रेषयामि
चेक् कृतवान्
अस्तु अस्तु महोदय एकनिमिषं अहं चाट् मध्ये प्रेषय स्थापयामि यतोहि सुलभं भवति हा एकनिमिषः यदि तत्र तत्र लिङ्क् नास्ति चेत् चिन्ता मास्तु हा इदानीं तत्र चाट् मध्ये प्रेषितवान् अस्मि महोदय
प्राप्नोमि महोदय घटे यत् मध्यमपरिमाणम् उत्पन्नं तत् कथम् उत्पन्नम् इत्युक्तौ कपाले विद्यमानं परिमाणं तस्मात् घटे मध्यमपरिमाणम् उत्पन्नं एवं कपाले यत् मध्यमपरिमाणम् उत्पन्नं तत् कथम् उत्पन्नं इत्युक्तौ कपालिकायां विद्यमानं परिमाणं तस्मात् कपाले मध्यमपरिमाणम् उत्पन्नं पुनः कपालिका अपि तथा अवयवस्य विद्यमानात् मध्यमपरिमाणात् स्वस्य परिमाणम् उत्पन्नं चतुर् अणुके अपि तथा त्रणुकेषु अपि मध्यमपरिमाणम् अस्ति अतः तस्मात् चतुरणुके परिमाणम् उत्पद्यते एवं कृत्वा उत्तरद्रव्याणां परिमाणस्य पूर्वपूर्व अवयवद्रव्येषु विद्यमानं परिमाणं कारणं भवति घटस्य अवयवः कपालः कपालस्य पुनः अवयवः कपालिका कपालिकायाः कपालः भवति कपालात् घटः भवति इति चतुरणुकं त्र्यणुकं त्र्यणुकात् चतुरणुकं भवति त्र्यणुकात् आरभ्य घटपर्यन्तं यानि द्रव्याणि वर्तन्ते तेषां सर्वेषां मध्यमपरिमाणं त्र्यणुकं चतुरणुकम् इति गुरु पदार्थानि कृतवन्तः तस्य सर्वाणि परिमाणम् अस्ति
समीचीनं
घटे यत् मध्यमपरिमाणम् उत्पन्नं तत् कथम् उत्पन्नं इत्युक्तौ कपाले विद्यमानं परिमाणं तस्मात् घटे मध्यमपरिमाणम् उत्पन्नं अतः घटे कथं मध्यमपरिमाणम् उत्पद्यते इति प्रश्नः अस्ति कपाले परिमाणम् अस्ति तदेव मध्य घटस्य परिमाणस्य कारणम् इति
यतोहि तत्र तद् समीचीनं खलु नाम यदि तत्र कपालस्य परिमाणं बृहत् अस्ति चेत् तथा घटस्य अपि परिमाणं बृहत् भवति अतः तत्र सम्बन्धः वर्तते इति जानीमः खलु तत्र कपालस्य परिमाणम् अपि घटस्य परिमाणं तयोः मध्ये सम्बन्धः वर्तते खलु
एवं कपाले यत् मध्यमपरिमाणम् उत्पन्नं तत् कथम् उत्पन्नं इत्युक्तौ कपालिकायां विद्यमानं परिमाणं तस्मात् कपाले मध्यमपरिमाणम् उत्पन्नं तथैव कपाले कथं मध्यमपरिमाणं भवति इति प्रश्नः अस्ति चेत् कपालिकायां परिमाणम् अस्ति तदेव कपालस्य परिमाणस्य कारणम् इति पुनः कपालिका अपि तथा अवयवस्य विद्यमानात् मध्यमपरिमाणात् स्वस्य परिमाणम् उत्पन्नं कपालिकायाः परिमाणं तस्याः अवयवात् भवति इति
नाम तत्र एतस्य वाक्यस्य पुनः कपालिका अपि तथा इति तस् वाक्यं किञ्चित् तत्र विश्लेषणम् आवश्यकं महोदय.
कपालिका अपि तथा, कपालिका अपि
तथा तथा. इदानीम् एतावत् तत्र उदाहरणानि नाम तत्र यथा घटः कपालः, कपालात् घटस्य कपालस्य परिमाणात् घटस्य परिमाणं, पुनः कपालिकायाः परिमाणात् कपालस्य परिमाणम्. इदानीं तत्र तत्त्वं किम् इत्युक्ते तत्र तत्त्वम् अत्र उक्तं किं तत्त्वम्? अवयवस्य
अवयवस्य परिमाणम् एव अवयवीनः परिमाणम्
इति समीचीनं महोदय. अवयवस्य तत्र अवयवस्य विद्यमानात् मध्यमपरिमाणात् नाम अवयवस्य मध्यमपरिमाणम् अस्ति, विद्यमानमस्ति, तस्मात् परिमाणात् तत्र विद्यमानात् परिमाणात् विशेषणविशेषभावः, तस्मात् कारणात् स्वस्य परिमाणमपि स्वस्य परिमाणम् उत्पन्नम् अवयवस्य अवयविनः अवयविनः परिमाणम् उत्पन्नम्. तर्हि तत्र अवयवी अवयवाः अवयवः पुनः एतद् अवयवी भवति तथा एतद् अवयवः भवति इति कृत्वा तत्र अवयविनः परिमाणस्य कारणमस्ति अवयवानां परिमाणं खलु.
आं महोदय.
समीचीनं महोदय. अग्रे इदानीं चतुरणके अपि
तथा त्रिणुकात् तथैव चतुरणुकस्य परिमाणं त्रिणुकस्य परिमाणात् भवति उत्पद्यते. त्रिणुकेषु अपि मध्यमपरिमाणम् अस्ति अतः तस्मात् चतुरणुके परिमाणम् उत्पद्यते. तदा एव तद्वाक्यमेव अन्यरूपे उक्तं.
नाम यः सम्बन्धः घटकपालयोः मध्ये वर्तते सः सम्बन्धः कपालः कपालिकायो तयोः मध्ये अपि वर्तते. तथैव कियत्पर्यन्तम् इत्युक्ते त्रयाणुकं चतुरणुकं पर्यन्तं तयोः मध्ये अपि वर्तते.
एवं कृत्वा उत्तर उत्तरद्रव्याणां परिमाणस्य पूर्वपूर्व अवयवद्रव्येषु विद्यमानं परिमाणं कारणं भवति. पूर्वं दृष्टवन्त तत्त्वमेव उक्तम्. अवयवस्य परिमाणम् अवयविन्यः परिमाणस्य कारणम् इति
भवति. समीचीनं महोदय. तर्हि उत्तर उत्तरद्रव्याणां नाम त्रयणुकात् तत्र चतुरणुकं चतुरणुकात् इति परम्परया कपालिका कपालिकात् कपालिकातः कपालः इति एतत् सर्वं परम्परया भवति. एकस्य परिमाणम् अग्रे यः पदार्थः अस्ति तस्य परिमाणं परिमाणस्य कारणं भवति इति. अस्तु समीचीनं महोदय. एतावत् प्रश्नः अस्ति वा? धन्यवादः महोदय. समीचीनं. एतावत् कोऽपि प्रश्नः?
तर्हि तत्र
किं भगिनि?
अहं कपाल जानामि, कपालद्वयसंयोगात् घटः जायते,
किन्तु
कपालकीदृशी
कपालः अपि पुनः तत्र कपालस्य निर्माणमपि तत्र कपालिकाद्वयेन इति कपालिका इति वयं तत्र अवयवः इति चिन्तयामः.
तस्यैव अर्धभाग एतादृशं वा?
हा इति नाम तत्र अणु परमाणुपर्यन्तं गन्तुम् इच्छामः. तर्हि यत्किमपि यत् आरम्भे पुस्तके दृष्टवन्तः खलु भगिनि, तत्र पाषाणखण्डं पाषाणस्य भागं स्वीकृत्य तस्य खण्डं कृत्वा इदानीं खण्डद्वयमस्ति, पुनः एकं खण्डं स्वीकृत्य तस्य पुनः भागद्वयं कुर्मः इति यदि परम्परया गच्छामः तत्र अन्तिमचरम यावत्पर्यन्तं तादृशं कर्तुं शक्नुमः तावत्पर्यन्तं कुर्मः, तदनन्तरम् अन्तिमे यदा किमपि न कर्तुं शक्नुमः, तादृशं भागं न कर्तुं शक्नुमः, तदा वयं किं प्राप्नुमः, परमाणवः इति, खलु? अतः तत्र परम्परायाः परम्परा या अस्ति तस्याः अनुसारं वयम् अत्र गच्छामः. तत्र अवयवस्य तत्र परिमाणम् एव तत्र अवयविनः परिमाणं तस्य कीदृशम् इति तत्र तस्य निर्धारं करोति. मध्यमपरिमाणमस्ति चेत् अवयवस्य अवयविनः अपि मध्यमपरिमाणं भवति इति. समीचीनं भगिनि, मृणाली भगिनि.
तर्हि कपालिकाद्वयस्य संयोगात् कपालः जायते इति वा
इति चिन्तयतु. हा इति तत्र न्यायशास्त्रे तादृशं चिन्तनं. किन्तु तत्र यदि अर्धभागः अस्ति वा अथवा तत्र यदि तत्र कपालिकात्रयं स्वीकृत्य कपालस्य निर्माणं भवति चेत् अपि साधु एव इति. नाम कपालिका अवयवः अस्ति कपालस्य. अस्तु, समीचीनम्. अस्तु, अग्रे तर्हि इदानीं तत्र ओ योगेन्द्रमहोदय नमस्कारः, नरसिंहदेव महोदय नमस्कारः.
नमस्कारः महोदय.
नमस्कारः पद्मा. नमस्कारः महोदय. पद्मा भगिनी नमस्कारः.
नमस्ते.
नमस्कारः भगिनि. अस्तु, इदानीम् अग्रे तर्हि तत्र विमला भगिनी पठितुं शक्नोति वा?
आं महोदय, नमस्ते.
अस्तु, तर्हि तत्र तृतीयपरिच्छेदः
तथा चेति तत्रतः खलु. तथा च परिमाणस्य कश्चन नियमः सिद्धः. स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वं सजातीयम् इति समानजातीयं, स्वोत्कृष्टम् इति स्वस्य अपेक्षया उत्कृष्टम्. कथमिति चेत् चिन्तयतु, कस्मिंश्चित् द्रव्ये परिमाणं जायते, यथा कपालपरिमाणतः घटपरिमाणम् उत्पद्यते, तत्र द्वयोः द्रव्ययोः परिमाणं समानजातीयं, नाम उभयत्र मध्यमपरिमाणं न तु अणुपरिमाणं वा परममहत्परिमाणं वा. अतः स्वसजातीयं परिमाणम् उत्पद्यते. तदा कपालपरिमाण अपेक्षया घटे विद्यमानं परिमाणं किञ्चित् उत्कृष्टं भवति, अधिकं भवति. कपालपरिमाणं यावत् तत् अपेक्षया अधिकं परिमाणं घटे भवति. इत्थञ्च स्वसजातीय स्व उत्कृष्टपरिमाणजनकत्वं परिमाणस्य इति नियमः. यत्र परिमाणस्य नियमः कः इति उक्तमस्ति. प्रथमतया एतद् उक्तं यत् स्व उत्कृष्टपरिमाणजनकत्वं. स्वजातीयम् इत्युक्ते परिमाणमेव. कपाले यत् परिमाणमस्ति तथा घटे यत् परिमाणमस्ति तत् स्वजातीयम् इति उक्तं.
समानजाति.
तर्हि स्वसजातीय इत्युक्ते स्वस्य समानजातीयस्य. उत्कृष्टमित्युक्ते स्वस्य अपेक्षया उत्कृष्टमिति, बृहत् अपि भवेत् अथवा किमपि उत्कृष्टमपि भवेत्. परम् तर्हि कस्मिंश्चित् द्रव्ये परिमाणम् अस्ति इति चिन्तयति चेत् यथा कपालपरिमाणं, तत् कपालपरिमाणतः घटपरिमाणम् उत्कृष्टमस्ति, बृहत् अस्ति, यतोहि द्वयोः कपालयोः संयोगेनैव घटः उत्पद्यते. तत्र द्वयोः द्रव्ययोः परिमाणं समानजातीयमस्ति. उभयत्र मध्यमपरिमाणमस्ति, न तु अणुपरिमाणं वा परममहत्परिमाणम्. अतः स्वसजातीयं परिमाणम् उत्पद्यते इत्युक्ते पुनः मध्यमपरिमाणमेव उत्पद्यते, न अणुपरिमाणं न परममहत्परिमाणमिति.
तत्र अत्र घटस्य अपि कपालयोः तत्र परिमाणं मध्यमपरिमाणं खलु
मध्यमपरिमाणम् आम्
कपालिका अपि तस्मात् मध्यमपरिमाणं चतुरणुकं
तदपि मध्यमपरिमाणं
त्रयणुकं
तदपि मध्यमपरिमाणं
हा किन्तु द्वयणुकम् अणुपरिमाणम् अतः एव तत्र अत्र एव स्थगितं विवरणम् द्वयणुकम् अणु इति तावत्पर्यन्तं न गतवन्तः त्रयणुके एव तत्र तावत् पर्यन्तमेव गतवन्तः
तदेव अत्र उक्तमस्ति कपालिकाय अपेक्षया कपालपरिमाणं बृहत् तदपेक्षया घटे परिमाणम् अधिकमस्ति तदेव स्वसजातीय स्व उत्कृष्टपरिमाणजनकत्वं परिमाणस्य इति कश्चन सिद्धान्तः
समीचीनं तर्हि तत्र उत्कृष्टं भवति स्वजातीयं भवति किन्तु स्वपेक्षया स्वपरिमाणस्य अपेक्षया उत्कृष्टमपि
भवति
अपि भवति इति समीचीनं भगिनी हा धन्यवादः
धन्यवादः
हा समीचीनं भगिनी अस्तु अग्रे तत्र नीता भगिनी स्वशब्दैः तत्र अस्मिन् परिच्छेदे यदस्ति वदति वा भगिनि नाम स्वजातीय स्वोत्कृष्टपरिमाणजनकत्वं नाम किम् इति भगिनी अस्ति वा
क्षम्यताम् अहम् अन्म्यूट् एव न कृतवती क्षम्यतां प्रथमतः तु वयं दृष्टवन्तः अवयवस्य यत् परिमाणं विद्यमानम् अस्ति तत् अवयविनः उत्पन्नम् इति प्रथमं
तस्मात् अवयविनः परिमाणमपि उत्पन्नं भवति
इति ततः घटस्य अवयवः कपालः कपालयोः अवयवः कपालिकाः तथैव तत्र तत् घटः कपालः कपालिकाः अनन्तरं चतुरणकं त्रैणुकम् एवम् अस्ति अवयवी इति सम्बन्धात्
सत्यं तत्र परम्परा दीर्घपरम्परा अस्ति
तत्र त्र अणुकं पर्यन्तम् एवं वयम् इदानीं तस्य एव चर्चा भवति यतोहि तत् मध्यं परिमाणे अन्तर्भूताः सन्ति अग्रिमे द्वयणुकं तस्य चर्चा अत्र नास्ति यतोहि ते मध्यमपरिमाणे अन्तर्भूताः न सन्ति इति अत्र सजातीयं तत्र एकं सिद्धान्तमस्ति स्वसजातीय स्व उत्कृष्टपरिमाणजनकत्वम् अत्र कपालपरिमाणात् प्रथमतः तु घटपरिमाणात् कपालपरिमाणम् उत्पद्यते कपालपरिमाणात् घटपरिमाणम् उत्पद्यते तत्र परिमाणं समानजातीय सजातीयम् इत्युक्ते तत् परिमाणं तु समानजातीयम् एव भवति इत्युक्ते अत्र उभयपरिमाणम् एव तिष्ठति अनन्तरम् अणुपरिमाणं वा परममहत्परिमाणं तत्र न भवति इत्युक्ते तत्र समानजातीयत्वं वर्तते सजातीयत्वम् एव वर्तते द्वितीय अस्ति स्वजातीय स्व उत्कृष्टपरिमाणजनकत्वम् इत्युक्ते कपालपरिमाणं यदि पश्यामः चेत् कपालपरिमाणपेक्षया घटे यत् परिमाणं वर्तते तत् घटे विद्यमानं परिमाणं यत् अस्ति तत् किञ्चित् उत्कृष्टं भवति अधिकम् इति अर्थे अधिकं भवति इतोपि भवति तथैव कपालपरिमाणं यत् अस्ति कपालपरिमाणम् अपेक्षया उत्कृष्टं परिमाणं घटे वर्तते अतः तत्र स्वोत्कृष्टम् इति स्वस्य अधिकम् अपेक्षया उत्कृष्टं परिमाणं जनयति इति नियमः सिद्ध्यते
अस्तु समीचीनं तर्हि धन्यवादः भगिनी समीचीनमस्ति
धन्यवादः
अस्तु तर्हि तत्र यः कोऽपि इदानीं वक्तुं शक्नोति तर्हि तत्र स्व सजातीयस्वोत्कृष्टपरिमाणजनकत्वं कुत्र वर्तते, कस्मिन् पदार्थे अस्ति, कोऽपि वदति वा?
अवयवे एव अस्ति
न,
अवयवेषु एव
न, कोऽपि वदति वा? स्वजातीयस्वोत्कृष्टपरिमाणजनकत्वं कस्मिन् पदार्थे वर्तते?
मध्यमपरिमाणे.
हा, किमर्थम्?
जातीयस्वोत्कृष्ट परिमाणं महत् परिमाणं न भवति.
हा, किन्तु तत्र, हा किन्तु किञ्चित् वक्तव्यमस्ति. हा, तर्हि तत्र परिमाणे एतदस्ति इति सर्वे अवगच्छन्ति वा? तत्र तत्र स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वं नाम कुत्र अस्ति?
लघुत्वम् इति.
किं भगिनि?
लघुत्वम् इति.
न न भगिनि,
उत्कृष्टपरिमाणजन उत्कृष्ट अधिकं
भवति. हा, सत्यं सत्यम्,
उत्कृष्टपरिमाणजनकत्वम्
इति तत्र यत् लिखितं तत्र आरम्भे तत्र, किन्तु एतत् कुत्र अस्ति, कस्मिन् पदार्थे वर्तते? एकम् एकः अस्ति, तत्र अर्थः कः इति नाम तत्र दीर्घपदस्य समस्तपदस्य अर्थम् अर्थः कः, अपि तस्य अनन्तरं तत्र एतद् तत्र जनकत्वं कुत्र वर्तते इति अपि अवगन्तव्यं खलु. तर्हि तत्र एतादृशं जनकत्वं कुत्र वर्तते?
अवयवपरिमाणे अस्ति वा? अवयवपरिमाणत्वे
परिमाणे अस्ति, परिमाणे समीचीनम्. हा, अवयवपरिमाणे समीचीनम्, अवयवपरिमाणे एतादृशम् अस्ति, जनकत्वम् अस्ति नाम कारणत्वम् अस्ति. कस्य कारणत्वम् अस्ति, कीदृशकारणत्वम् अस्ति? परिमाणं परिमाणजनकत्वं नाम परिमाणं कार्यमस्ति, तत् कार्यं प्रति कारणत्वं परिमाणे अस्ति इति. अतः तत्र कीदृशपरिमाणम्? उत्कृष्ट स्व उत्कृष्टपरिमाणजनकत्वं नाम स्वस्य अपेक्षया, स्वस्य परिमाणस्य अपेक्षया उत्कृष्टपरिमाणजनकत्वं तत्र अपि स्वसजातीयपरिमाणजनकत्वं. तर्हि तत्र जनकत्वं कीदृशम् इत्युक्ते परिमाणस्य जनकत्वं. परिमाणं कीदृशम् अस्ति? तत् परिमाणं कीदृशमस्ति यत् जनयति, तत् कीदृशमस्ति? विमला भगिन्या उक्तम् अस्ति, पठितमस्ति, किन्तु अन्य कोऽपि वदेत् तत्र परिमाणं यत् भवति नाम तत्र कपालस्य परिमाणं चिन्तयतु, अपि घटस्य परिमाणं चिन्तयतु. कपालस्य परिमाणात् घटस्य परिमाणं सिद्ध्यति, उत्पद्यते. तर्हि तत् परिमाणं कीदृशम् अस्ति? कपालस्य स्वजातीय अस्ति. हा, स्वजातीय अस्ति, समीचीनम्. अपि स्वोत् उत्कृष्ट, स्वोत्कृष्ट. अतः तत्र विशेषणद्वयमस्ति परिमाणस्य, स्वजातीय स्वोत्कृष्टपरिमाणं जनयति मध्यमपरिमाणम् अथवा अवयवस्य परिमाणम् इति. समीचीनं वा? तत्र स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वं नाम किम् इति तत्र तत्र किमर्थम् एतादृशं विवरणं नाम तत्र तादृशं दत्तम् अत्र इति सर्वे अवगच्छन्ति खलु? कोऽपि प्रश्नः अत्र अपि एतादृशजनकत्वं कुत्र वर्तते परिमाणस्य इति नियमः नाम परिमाणे वर्तते कोऽपि प्रश्नः अग्रे गच्छामः वा अस्तु तर्हि अग्रे तर्हि तत्र उषा भगिनी अग्रे
इदानीं द्वै अणुकं प्रति समवायिकारणं किम् द्वै अणुकस्य अवयवः परमाणुः तर्हि द्वै अणुकपरिमाणं प्रति किम् असमवायिकारणं भवितुम् अर्हति परिमाणौ विद्यमानपरिमाणं तत्र परिमाणप्रसङ्गे नियमः कः स्वजातीय स्व उत्कृष्टपरिमाणजनकत्वम् इत्युक्तं तर्हि स्वजातीयपरिमाण इत्युक्ते अणुपरिमाणमेव स्व उत्कृष्टम् इत्युक्ते परमाणु अपेक्षया उत्कृष्टम् अणुपरिमाणम् उत्पद्यते द्वै अणुके अतः परमाणु अपेक्षया इतोपि सूक्ष्मं स्यात् परम् अणुत्वम् इतोपि लघु स्यात् यत्र मध्यमपरिमाणम् अस्ति तत्र उत्कृष्टं परिमाणम् इत्युक्ते इतोपि किञ्चित् अधिकं नाम बृहत् किन्तु परमाणुपरिमाणस्य इतोपि उत्कृष्टम् इत्युक्ते इतोपि अणु इतोपि लघु इतोपि सूक्ष्मम् तदनुसृत्य द्वै अणुकपरिमाणं परमाणवोः आणुपरिमाणस्य अपेक्षया लघु स्यात् द्वै अणुकपरिमाणं परमाणवोः आणुपरिमाणस्य अपेक्षया लघु स्यात् यद्यपि वस्तुतः तथा नास्ति इति जानीमः तदर्थं परमाणुपरिमाणं द्वै अणुकपरिमाणस्य कारणं न भवितुम् अर्हति अपि तु परमाणुगतद्वित्वसङ्ख्या एव द्वै अणुकपरिमाणस्य कारणं द्वयसंयोगेन द्वै अणुकं भवति परमाणुद्वयसंयोगेन द्वयणुकं भवति तस्मिन् समये प्रत्येकस्मिन् परमाणौ द्वित्वसङ्ख्या जायते परमाणौ विद्यमानद्वित्वसङ्ख्यया आणुपरिमाणं द्वै अणुके उत्पद्यते
तत्र बहु किमपि उक्तं किन्तु
एकमेकं वाक्यं पठित्वा अहं प्रयत्नं
करोमि एतावत्पर्यन्तं तत्र लघु इतोपि लघु स्यात् इति तत्र तावत्पर्यन्तं पठतु भगिनि
इदानीं द्वै अणुके प्रति समवायिकारणं किम् अत्र पूर्वं वयं पठितवन्तः घटस्य अवयवः कपालः कपालस्य अवयवः कपालिका अपि च देन् घटम् इत्यस्य अवयवस्य अवयविनः परिमाणम् उत्पद्यते अवयवस्य परिमाणात् अवयविनः परिमाणम् उत्पद्यते इति वयं दृष्टवन्तः
अपि तत्र घटः अपि कपालः अवयवः अस्ति अपि कारणमपि भवति कीदृशं कारणमस्ति घटस्य
समवायिकारणम् इति वयं जानीमः इदानीं द्वै अणुकं प्रति परमाणुपरिमाणं परमाणुद्वै अणुकयोः अतः नौ इदानीं द्वै अणुकं प्रति
द्वै अणुकम् अपि तत्र तस्य विषयः उद्घाटितः
इदानीं द्वै अणुकं प्रति समवायिकारणं किम् द्वै अणुकस्य अवयवः परमाणुः द्वै अणुकस्य अवयवः परमाणुः इति वयं जानीमः द्वै अणुकं प्रति समवायिकारणं किम् इति अत्र वयं पठेम तर्हि द्वै अणुकपरिमाणं प्रति किम् असमवायीकारणं भवितुम् अर्हति? समवायीकारणं किम्? तर्हि द्वयणुकपरिमाणं प्रति किम् असमवायीकारणं भवितुम् अर्हति
इति प्रश्नः. नाम तत् द्वयणुकस्य अवयवः परमाणुः.
परमाणुः आम्.
तर्हि तत्र परमाणु एव तत्र द्वयणुकस्य समवायीकारणम्
आम् आम्
खलु. अपि द्वयणुकपरिमाणं
प्रति
परिमाणं प्रति तत्र समवायिकारणं जानीमः खलु.
समवायस्य
समवायिकारणं किमस्ति?
द्वयणुकपरिमाणस्य कृते परमाणुः
न नाम द्वयणुकस्य समवायिकारणम् अस्ति परमाणुः.
परमाणुः
नाम घटस्य समवायिकारणं किमस्ति? कपालः. किन्तु घटे विद्यमानं परिमाणं तस्य समवायिकारणं किमस्ति?
घटे विद्यमानं कपालद्वयोः संयोगः. दट् इस् असमवायिकारणं.
समवायिकारणं किमस्ति?
घटे यत् कपालः
घटे विद्यमानं परिमाणं
घटे विद्यमान परिमाण यत् समवायेन स्थित्वा रे समवायेन
स्थित्वा तर्हि परिमाणं कुत्र अस्ति समवायेन?
कपालस्य कृते एव महोदय.
न घटे एव वर्तते खलु.
घटः कार्यं
न परिमाणम् इति कार्यं. परिमाणस्य समवायिकारणं किम् इति प्रश्नः. नाम तत्र रक्तवर्णघटः अस्ति, रक्तरूपं रक्तरूप रक्तघटः अस्ति, रूपम् इति अस्ति घटे. तस्य समवायिकारणं किम् इत्युक्ते उत्तरं किं भवति? रक्तरूपं प्रति कारणं समवायिकारणं किम् इत्युक्ते तत्र वयं दृष्टवन्तः आश्रयः एव तत्र सर्वदा समवायीकारणं
घटः एव.
घटः एव अतः एव तत्र घटस्य समवायिकारणम् इत्युक्ते घटस्य आश्रयः तर्हि कपालः इति भवति.
कपाल
अवयवः तत्रापि समवायसम्बन्धः खलु. अवयव अवयविनोः मध्ये समवायसम्बन्धः गुणिनोः मध्ये अपि समवायसम्बन्धः. अतः तत्र परिमाणस्य समवायिकारणं घटः भवति. घटे विद्यमानं परिमाणं प्रति घटः एव समवायिकारणम् खलु. किन्तु असमवायिकारणं किम् इति न जानीमः एतावत्. परिमाणस्य घटे विद्यमानं परिमाणं प्रति घटः एव समवायिकारणम् अस्ति. किन्तु घटे विद्यमानं परिमाणं यदस्ति तस्य असमवायिकारणं किम् इति इदानीं प्रश्नः. तत्र किं भवितुम् अर्हति इति प्रश्नः.
असमवायिकारणं किं भवितुम् अर्हति इति चेत् परिमाणौ विद्यमान परमाणौ विद्यमान परिमाणं लैक् घटे विद्यमान परिमाणमेव अत्र
तादृशम् अत्र घटः इति विषयः नास्ति. द्वयणुकमपि
द्वयणुकं प्रति परमाणौ विद्यमान परिमाणम् एव असमवायिकारणम् इति. द्वयणुकपरिमाणं प्रति परमाणौ विद्यमान
तत्र परमाणौ यत् परिमाणम् अस्ति तदेव द्वयणुके विद्यमानं परिमाणं असमवायिकारणम् इति चिन्तनम् उत्तरमस्ति. किन्तु
तत्र परिमाणप्रसङ्गे नियमः कः? स्वजातीय स्व उत्कृष्टपरिमाणजनकत्वम् इति उक्तम् स्वजातीय स्व उत्कृष्टपरिमाणजनकत्वम् इति उक्तं तर्हि स्वजातीयपरिमाणम् इत्युक्ते अणुपरिमाणम् एव द्वयणुकस्य कृते अणुपरि परमाणुः एव स्वजातीयपरिमाणम् इति
किमुक्तम् अत्र किमुक्तम्
स्वजातीय परमाणु
इत्युक्ते स्वजातीय इत्युक्ते
स्वजातीय इत्युक्ते अणुपरि अत्र अणुपरिमाणम् इति अणुपरिमाणम् इस् डिफ्रेण्ट् फ्रम् परमाणुपरिमाणम् खलु
महोदय
तदेव
तदेव अस्ति किन्तु स्वजातीय इत्युक्ते किमस्ति परमाणौ यत् परिमाणम् अस्ति
परमाणौ यत् परिमाणम् अस्ति तदेव
तस्य स्वजातीयपरमाण स्वजातीयं परिमाणम् एव द्वयणुके अपि अस्ति
अस्ति आम्
इति खलु नाम स्वजातीयम् इत्युक्तौ तदेव नाम अत्र परमाणौ परिमाणं किमस्ति अणुपरिमाणमेव अस्ति
सो परमाणुपरिमाणम् इस् द अणुपरिमाणम् ओके परमाणु यत्
परिमाणम् इति अनुक्त्वा अणुपरिमाणम् इति
स्व उत्कृष्टम् इत्युक्ते परमाणु अपेक्षया उत्कृष्टम् अणुपरिमाणम् उत्पद्यते द्वयणुके परमाणु अपेक्षया अधिकम् अस्ति अधिकं
परिमाणम् उत्कृष्टम् उत्कृष्टम् इति उत्कृष्टम् अणुपरिमाणम्
उत्पद्यते द्वयणुके
द्वयणुके
द्वयणुके उत्कृष्टम् अस्ति परमाणु अपेक्षया
परिमाणम् अस्ति तत् उत्कृष्टम् अस्ति परमाणु
माणु अपेक्षया
परिमाणम्
परिमाण परमाणुपरिमाणस्य अपेक्षया द्वयणुके यत् विद्यमानं परिमाणम् उत्कृष्टं भवति अतः परमाणु अपेक्षया इतोपि सूक्ष्मं स्यात्
इति
अतः परमाणु अपेक्षया इतोपि सूक्ष्मं स्यात् परम अणुत्वम् इतोपि लघु स्यात् सूक्ष्मम् इति अस्ति इत्यनेन
अर्थः भिन्नः भवति परमाणुस्तरे नाम उत्कृष्टम् इति यदि वदामः तत्र परम् इति अर्थे भवति किन्तु तत्र परम् इत्युक्ते अधिकं किन्तु तत्र अधिकं बृहत् इति किन्तु अत्र अधिकं लघु इति
लघु
अतः तत्र किं भवति सूक्ष्मतरं
भवति
इति अर्थः आगच्छति
पूर्वं
तत्र बृहत् अधिकं बृहत् इति आसीत् किन्तु अणु परमाणुस्तरे किं भवति लघुतरम् इति अतः भिन्नः भवति अस्तु धन्यवादः भगिनी समीचीनमस्ति अग्रे तत्र अग्रे तत्र शोभभगिनी अग्रे पठति वा
आं महोदय तत्र अतः परमाणु अपेक्षया इतोपि सूक्ष्मं स्यात् प्रायशः अग्रे आगच्छति किन्तु मया न अवगतं सूक्ष्मं कथं भवति किमर्थं
तत्र किमर्थम् इति न अग्रे पठित्वा एव जानीमः
अस्तु अतः परमाणु अपेक्षया इतोपि सूक्ष्मं स्यात् परम अणुत्वम् इतोपि लघु स्यात् यत्र
नाम तत्र अधिकं परम इति वयं चिन्तयामः अधिकं नाम मोर् आफ् दट् इति किन्तु यदि वयम् अणुत्वम् इति स्थाने वयं तत्र मोर् इति स्थापयामः तत्र मोर् स्माल् इति अर्थे तत्र किं भवति स्मालर् इति भवति किन्तु बृहत् इति न अर्थः भवति खलु
इत्युक्ते महोदय तत्र स्व उत्कृष्टम् इत्युक्ते परमाणु अपेक्षया उत्कृष्टम्
उत्कृष्टं नाम परम् इति
परम् अस्तु
इत्युक्ते यद्
अधिकं
किन्तु अधिकम् इत्युक्ते मध्यमपरिमाणे बृहत् अधिकम् इति तत्र बृहत् इति भवति.
अस्तु,
यदस्ति तस्य एव अधिकं गुणं भवेत्. नाम लेस् अस्ति चेत् तत्र लेस्सर्, नाम यत् गुणम् अस्ति तस् तद्गुणम् आधिक्येन वर्तते. नाम लेस् अस्ति चेत् लेस्सर् इति भवति, तर्हि सूक्ष्मम् अधिकसूक्ष्मम् इति भवति.
किं तत्र किम् अधिकसूक्ष्मं भवति तत्र परमाणु अपेक्षया इतोपि सूक्ष्मं?
नाम अवयवः अवयवी अवयवी तत्र मध्यमपरिमाणे उदाहरणं तत्र घटः अपि कपालः. तत्र कपालपरिमाणं घटस्य परिमाणं तत्र सजातीयं परिमाणम् अस्ति वा?
अस्ति
अस्ति, नाम समानजाति अस्ति. इदानीं तत्र कपालस्य परिमाणम् अपि घटस्य परिमाणं समानजातीयपरिमाणम् अस्ति, किन्तु किञ्चित् तत्र कश्चन भेदः वर्तते. नाम घटस्य परिमाणं कपालस्य परिमाणस्य अपेक्षया किञ्चित् बृहत् अस्ति.
आम्
खलु, तदेव तत्र स्व उत्कृष्टम् इति उक्तम्.
अस्तु,
स्व उत्कृष्टम् इति स्व उत्कृष्टम् उत्कृष्टं नाम परम् इति अर्थः एव भवति. परम् इति परम् इत्युक्ते नाम यदस्ति तदेव आधिक्येन वर्तते इति, न तु सर्वदा बृहत् इति अर्थः नास्ति. उत्कृष्टं नाम परं, परं नाम यदस्ति तद् आधिक्येन वर्तते इति.
अस्तु,
हा तर्हि अणुत्वम् अस्ति चेत् लघु अस्ति चेत् लघुतरं भवति, लघुत्वम् आधिक्येन अस्ति चेत् तद् लघुतरं भवति खलु.
ओ अस्तु अस्तु, इत्युक्ते अणुत्वम् अस्ति चेत् तत्र आधिक्येन भवति, किन्तु लघुत्वम् अस्ति चेत् इतोपि लघुत्वं भवति इति वा?
हा इति अस्ति भगिनि, तर्हि लघु इति.
ओ अस्तु, लघुत्वम् आधिक्येन भवति चेत्
सूक्ष्मतरं
सूक्ष्मं स्यात् इति वा?
सूक्ष्मतरं स्यात् इति.
अस्तु अस्तु, धन्यवादः महोदय. परं परम अणुत्वम् अस्तु, तत्र तु परं इतोपि लघु स्यात्.
परम नाम यत् अणुत्वम् अस्ति तत्र आधिक्येन परम इतोपि अधिकम् अणुत्वम्.
इतोपि किञ्चित् सन्देहः तत्र महोदय, विभागे अणु इति पृथक् अस्ति, तत्र अणु महद् दीर्घं ह्रस्वम् इति दृष्टवन्तः, इदानीं लघुत्वस्य विषये
तत्र तत्र भगिनि तत्र ता यत् वयम् उक्तवन्तः खलु, नाम तत्र अणु महद् दीर्घं ह्रस्वः तद् त्यक्तवन्तः. इदानीम्
अणुपरिमाणं मध्यमपरिमाणं परममहत्
परिमाणम् इति एव विषयः. सत्यं भगिनि,
अत्र इदानीम् अणुपरिमाणं स्वीकृत्य चर्चां कुर्वन्तः स्मः.
सत्यं, तर्हि तत्र परम अणुत्वम् इति भवति, नाम उत्कृष्टं नाम अणुत्वस्य अणुत्वम् उत्कृष्टरूपेण वर्तते इत्युक्ते तत् नाम अणुत्वम्
अस्तु अणुत्वम् इत्यतः इतोपि लघु स्यात् इति.
इतोपि लघु स्यात्
अस्तु महोदय. यत्र मध्यमपरिमाणम् अस्ति तत्र उत्कृष्टं परिमाणम् इत्युक्ते इतोपि किञ्चित् अधिकं नाम बृहत्, किन्तु परमाणुपरिमाणस्य इतोपि उत्कृष्टम् इत्युक्ते इतोपि अणु इतोपि लघु इतोपि सूक्ष्मं. हा अस्तु महोदय, अवगतं. तदनुसृत्य इत्युक्ते तत्र यतोहि इदानीम् अणुत्वम् इत्यस्य विषयः, अतः तत्र स्वभावेन यत्र उत्कृष्टम् इत्युक्ते आधिक्येन भवति इति, अतः उत्कृष्टं परिमाणम् इत्युक्ते इतोपि किञ्चित् अधिकं नाम बृहत्, किन्तु अस्मिन् प्रसङ्गे अणुत्वस्य आधिक्यम् इति.
सत्यम्,
अतः इतोपि सूक्ष्मं भवति इतोपि लघु भवति इति भवति तत्र
नाम तत्र मोर् स्माल् इति चिन्तयतु
मोर् स्माल् इति
इतोपि श्रेष्ठमिति वक्तुं शक्नुमः महोदय
उत्कृष्टमिति तदपि सत्यं भगिनि किन्तु श्रेष्ठः इति अर्थः अत्र न सङ्गच्छते
अस्तु
नाम श्रेष्ठः उत्कृष्टः इति तत्र उत्कृष्टं तत्त्वम् इति तादृश अर्थे भवति किन्तु अत्र उत्कृष्टं नाम अधिकं परम् इति एव
तदनुसृत्य द्विणुकपरिमाणं परमाणवोः द्विणुकपरिमाणं परमाणवोः अणुपरिमाणस्य अपेक्षया लघु स्यात्
खलु
हा तदनुसृत्य इत्युक्ते एतादृशं भवन्
वयं परिमाणस्य सिद्धान्तं यद् सिद्धान्तः यः पूर्वं यः सिद्धान्तः उक्तः यदि वयं तं सिद्धान्तं स्वीकुर्मः तत् सिद्धान्तं स्वीकुर्मः तर्हि किम् आगच्छति तर्हि तत्र द्वयणुकपरिमाणम् अपि परमाणुपरिमाणं किं लघु अस्ति इत्युक्ते द्वयणुकस्य एव लघु अस्ति खलु इतोपि लघु अस्ति द्वयणुकस्य परिमाणम्
अणुपरिमाणस्य अपेक्षया लघु स्यात्
नाम तत्र चित्ररूपेण लिखामः एकनिमिषः तत्र घटः अस्ति कपालः अस्ति इदानीं तत्र किमस्ति द्वयणुकम् अस्ति परमाणु अस्ति खलु
आम्
पूर्वं किम् आसीत् अस्य परिमाणं तस्य परिमाणस्य अपेक्षया बृहत् आसीत्
बृहत् आसीत्
इदानीम् अस्य परिमाणम् अस्य परिमाणस्य अपेक्षया लघु अस्ति सूक्ष्म
लघु अस्ति अस्तु अस्तु
खलु
विपरीतरीत्या भवति तत्र
विपरीतरी यदि वयं सिद्धान्तं यत् उक्तं स्वजातीय स्वसजातीय स्वोत्कृष्टपरिमाणजनकत्वं परिमाणस्य अस्ति इति यदि वयं चिन्तयामः तर्हि एतद् आगतं भवति खलु
हा इत्युक्ते परमाणुः जनकः भवति वा
हा परमाणुपरिमाणं जनकः जनकं भवति
जन्यं भवति
हा किन्तु एतस्य परिमाणं लघु अस्ति एतस्य परिमाणस्य अपेक्षया
लघु अस्ति
सूक्ष्मम् अस्ति इति आगतं खलु तत्र वदतु भगिनि
परमाणुद्वयस्य संयोगेन द्वयणुकं जायते खलु तर्हि द्वयणुकस्य परिमाणं परमाणुपरिमाणात् बृहत् भवेत् खलु
हा सत्यं सत्यं हा इति अग्रे तदेव दत्तमस्ति नाम एतावत् किं सिद्धान्तम् अनुसृत्य यत् भवति इति उक्तं नाम स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वं परिमाणस्य भवति चेत् एतादृशं भवति किन्तु
इत्युक्ते तत्र विधिलिङ्गि दत्तं स्यात् इति किन्तु तथा न भवति इति अग्रे प्रायशः यद्यपि वस्तुतः तथा नास्ति इति जानीमः तदर्थं
तद् नाम सिद्धान्तम् अनुसृत्य किं भवति द्वयणुकपरिमाणं परमाण्वोः अणुपरिमाणस्य अपेक्षया लघु
लघु स्यात् तत्र सिद्धान्तः इत्युक्ते स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वं
खलु महोदय स्वोत्कृष्ट इति यत् उक्तमस्ति स्वोत्कृष्ट अत्र किं भवति लघुतरम् इति
लघुतरम्
अर्थः स्वीकरणं तस्य स्वीकारः भवति अत्र
इत्युक्ते यत्किमपि अस्ति तस्य आधिक आधिक्यं भवति इति तादृशेन अर्थेन एतादृशं भवितुम् अर्हति इति अस्तु यद्यपि आम् आम् यद्यपि वस्तुतः तथा नास्ति इति जानीमः तदर्थं
नाम तत्र परिमाणं परमाणोः परिमाणस्य अपेक्षया बृहत् अस्ति
भवेत्
बृहत् किञ्चित् बृहत् अस्ति इति
किञ्चित् बृहत् अस्ति तदर्थं परमाणुपरिमाणं द्वेणुकपरिमाणस्य कारणं न भवितुम् अर्हति
अतः तदर्थ स्वसजातीय स्वोत्कृष्टपरिमाणजनकत्वं तादृशकारणत्वं नाम अत्र किम् अस्ति किं कृतम् इत्युक्ते साधारणतया वयं किं चिन्तयामः कारणम् अस्ति कपालपरिमाणं घटपरिमाणं प्रति कारणम् इति उक्त्वा समापयामः किन्तु तत्र किम् अस्ति केवलं कारणत्वं जनकत्वम् इति न उक्तं जनकत्वं विशिष्टरूपेण जनकत्वम् अस्ति नाम स्वजातीयम् अस्ति स्वोत्कृष्ट अपि अस्ति तादृशपरिमाणमेव जनयति इति तत्र तत्र विशिष्टम् अथवा तत्र किञ्चित् पालिश् तत्र रिफैन् कृत्वा तत्र दत्तमस्ति अतः कारणत्वम् इति कारणं न भवितुम् अर्हति इत्युक्ते एतादृशं कारणमेव भवितुम् अर्हति तादृशकारणत्वं तत्र परमाणोः परिमाणे तादृशं कारणत्वं नास्ति
न भवति इति अपि तु परमाणुगतद्वित्वसङ्ख्या परमाणुगतद्वित्वसङ्ख्या एव द्वेणुकपरिमाणस्य कारणं तर्हि तत्र परमाणुपरिमाणं कारणं न भवितुम् अर्हति द्वेणुकपरिमाणस्य यतोहि इदानीं दृष्टवन्तः इतोपि सूक्ष्मं लघु न भवति परमाणु अपेक्षया द्वेणुकपरमाणु द्रव्यं पदार्थं द्रव्यं अतः किमस्ति तत्र अपि तु परमाणुगतद्वित्वसङ्ख्या अस्ति तत्र इदानीं संख्या
नाम द्वयणुकं नाम परमाणुद्वयं
द्वयं तत्र हा संख्या इति इदानीम् आनीतव्यं तत्र
नाम एकः परमाणुः अन्यः परमाणुः अस्ति इदानीं द्वयणुकम् अस्ति
द्वयणुकम् इदानीं बृहत् भवितुम् अर्हति इति
न न केवलम् इदानीं प्रथमतया तत्र द्वयणुकम् अस्ति द्वयणुकम् अस्ति द्वयणुके तत्र एकः परमाणुः अन्यः परमाणुः किन्तु इदानीं तत्र अत्र किमस्ति द्वित्वम् इति संख्या अपि भवति गुणः संख्या इति गुणं
गुणः खलु
सः गुणः एव परिमाणस्य
कारणं भवति
भवति इति उक्तं हा तत्र अग्रे पठतु
परमाणुद्वयसंयोगेन द्वणुकं भवति हा जानीमः परमाणुद्वयसंयोगेन द्वणुकं भवति इति
भवति
तस्मिन् समये प्रत्येकस्मिन् परमाणौ द्वित्वसङ्ख्या जायते अस्तु द्वणुकं यदा भवति तस्मिन् समये प्रत्येकस्मिन् परमाणौ द्वित्वसङ्ख्या जायते
द्वित्वसङ्ख्या इति द्वे इति तत्र लिखितवान् तावदेव
प्रत्येकस्मिन् परमाणौ
परमाणुद्वये द्वयमस्ति प्रत्येकस्मिन् परमाणु द्वित्वम् इति संख्या जायते
इत्युक्ते इदानीं पर्यन्तं केवलं द्वणुकमेव तदा परमाणौ प्रत्येकस्मिन् परमाणौ द्वित्वसङ्ख्या जायते परमाणौ विद्यमानद्वित्वसङ्ख्यया अणुपरिमाणं द्वेणुके उत्पद्यते परमाणौ विद्यमान इदानीं तत् एषा द्वित्वसङ्ख्या इति परमाणौ विद्यमानम् अस्ति परमाणौ विद्यमानद्वित्वसङ्ख्यया तया अणुपरिमाणं द्वेणुके उत्पद्यते तत् कथं महोदय
अणुपरिमाणं नाम तस्य परिमाणं तस्य परिमाणम् उत्पद्यते
तस्य परिमाणम् उत्पद्यते
नाम तत्र परिमाणम् इति गुणः खलु परिमाणम् इति गुणः द्वयणुक द्वयणुकम् इति द्रव्यं द्वयणुके परिमाणम् इति भवति परिमाणं सर्वत्र भवति इति वयं पठितवन्तः खलु परिमाणं
नवद्रव्येषु
नवद्रव्येषु वर्तते तर्हि परिमाणं द्वयणुके अपि वर्तते गुणः अस्ति तस्य समवायिकारणं द्वयणुकम् एव परिमाणस्य समवाय
यतोहि संयोगः भवति तत्र अतः
नाम समवायिन परिमाणं समवायिन कुत्र अस्ति द्वयणुके अस्ति तर्हि द्वयणुकम् एव परिमाणस्य समवायिकारणम् असमवायिकारणं न समवायिकारणम्
आम् आम्
यः कोऽपि गुणः भवेत् तस्य आश्रयः एव तत्र समवायिकारणं सर्वदा गुणः क्रिया अपि तत्र अवयवी अस्ति चेत् तत्र अवयवः एव समवायिकारणम् इति दृष्टवन्तः वयं तर्हि द्वयणुकम् एव तत्र समवायिकारणं किन्तु असमवायिकारणं किम् इत्युक्ते नाम अन्य कोऽपि गुणः किमपि भवेत् समवायिकारणे समवायसम्बन्धेन भवेत् अपि कारणं भवेत् परिमाणं प्रति तर्हि अत्र किम् उक्तं द्वयणुके प्रत्येकस्मिन् द्वित्वसङ्ख्या इति भवति तर्हि द्वयणुके अपि द्वित्वसङ्ख्या इति गुणः अस्ति एष तत्र अस्मिन्नपि द्वित्वसङ्ख्या अस्ति अस्मिन्नपि द्वित्वसङ्ख्या अस्ति एषः गुणः अथवा गुणद्वयमेव परिमाणं प्रति द्वयणुकस्य परिमाणं प्रति कारणम्
तत्र इत्युक्ते तेषां संयोगः इति वक्तुं शक्नुमः
संयोगिनः संयोगानन्तरम् एव द्वित्वं जायते
हा अस्तु
प्रथमतया संयोगः संयोगात् अनन्तरमेव तत्र परमाणुद्वयसंयोगेन द्वयणुकं भवति उत्पद्यते तस्मिन् समये अथवा तदनन्तरं द्वयणुकस्य अनन्तरं तस्य उत्पत्तिसमय एकक्षणानन्तरं प्रत्येकस्मिन् परमाणौ द्वित्वसङ्ख्या जायते परमाणौ विद्यमानद्वित्वा द्वित्वसङ्ख्यया अणुपरिमाणं नाम अणुपरिमाणं सजातीय स्वसजातीय इति स्वसजातीयपरिमाणं द्वयणुके उत्पद्यते नाम परमाणोः अपि अणुपरिमाणं द्वयणुकस्यापि अणुपरिमाणम् अत्र न्यायशास्त्रे किं स्वीकृतं नाम किं चिन्तनमस्ति इति उक्तमस्ति नाम तत्र सङ्ख्या एव तत्र कारणं न तु परमाणो विद्यमानं परिमाणं कारणं द्वयणुकस्य परिमाणं प्रति इति तत्र तेषां चिन्तनम् अस्ति इति उक्तम् एतावत् अस्मिन् विषये चर्चा दीर्घा चर्चा भवितुम् अर्हति तत्र नाम तत्र एतत् एतत् सिद्धान्तमस्ति किन्तु तत्र न अहं न अङ्गीकरोमि इति तत्र प्रायशः तत्र वर्तते तत्र मतभेदः वर्तते अपि तत्र तयोः अस्मिन् विषये तत्र पुनः तत्र चर्चा भवति अतः हा अत्र केवलं तत्र सारांशत्वेन तत्र दत्तम् अस्तु सङ्ख्या इति नाम परिमाणम् एव तत्र कारणं नास्ति अन्यत् कारणम् इति न्यायशास्त्रे चिन्तनमस्ति द्वयणुकस्य परिमाणं प्रति इति वार्ता तावदेव
आचार्य प्रश्नः अत्र वयं यत् परिमाणं वदामः तत् परमाणुपरिमाणम् अस्ति वा
परमाणु सत्यं भगिनि अत्र सर्वत्र अणुपरिमाणं नाम परमाणुपरिमाणमेव सत्यं भगिनि अतः तत्र अहं तत्र पुस्तके दत्तमस्ति नाम यद्यपि तत्र मूलग्रन्थे अणुत्वं महत्त्वं दीर्घत्वं ह्रस्वत्वम् इति उक्तं चतुर्विधं परिमाणम् उक्तं मूलोक्तं बोध्यं किन्तु कार्यकारणभाववर्णनाय अन्यः अपि परिमाणस्य विभागः न्यायशास्त्रे प्रसिद्धः इति गतवर्गे पठितवन्तः. सः विभागः कः? अणुपरिमाणम्, मध्यमपरिमाणम् अपि परममहत् परिमाणम् इति. आकाशस्य परममहत् परिमाणं, परमाणोः अणुपरिमाणं, यत्किमपि अनित्यपदार्थः अस्ति तस्य मध्यमपरिमाणम्. तर्हि परमाणोः परिमाणम् अत्र अस्ति, द्वयणुकस्य अपि अणुपरिमाणमेव अस्ति, किन्तु त्रयणुक इति आरभ्य मध्यमपरिमाणम् इति स्वीकृतम्. हा, अतः तत्र यत् यस्य मध्यमपरिमाणमस्ति तद् अनित्यमस्ति, किन्तु यत् अनित्यमस्ति तद् मध्यमपरिमाणम् अस्ति इति न वक्तुं शक्नुमः. कोऽपि वदति वा किमर्थम् इति?
किं महोदय?
यस्य मध्यमपरिमाणमस्ति तद् अनित्यमस्ति, किन्तु यत् अनित्यमस्ति तस्य परिमाणं मध्यमपरिमाणम् इति न वक्तुं शक्नुमः.
मध्यपरिमाणम् इत्युक्ते तद् उद्भूतं भवति, अतः अनित्यम्.
सत्यं, हा, तर्हि त्रयणुक आरभ्य सर्वं मध्यमपरिमाणं भवति, किन्तु द्वयणुकं नित्यं नास्ति खलु? परमाणु नित्यम् अस्ति, किन्तु द्वयणुकं नित्यं नास्ति. द्वयणुकस्य परिमाणम् अणुपरिमाणम् अस्ति, परिमाणं नास्ति. तर्हि द्वयणुकम् अनित्यमस्ति, किन्तु तस्य परिमाणं मध्यमपरिमाणं नास्ति, अणुपरिमाणम् अस्ति न्यायशास्त्रे.
द्वयणुकं नित्यमेव खलु जि? तत् उद्भूतं न भवति खलु?
उद्भूतं न भवति, किन्तु तत् नित्यं नास्ति. परमाणवः एव तत्र, तत्र यत्र अवयवः नित्यं नास्ति इत्युक्ते तस्य अवयवः अस्ति. परमाणुद्वयेन संयोगेन द्वयणुकं जातम् इति कृत्वा तत्र द्वयणुकं तत्र नित्यं नास्ति. उत्पत्तिः अस्ति, हा, उत्पत्तिः अस्ति इति कृत्वा यत्र अवयवः अस्ति तत्र नित्यं नास्ति इति.
अत्र एकः सन्देहः जि, घटः अस्ति, घटस्य परिमाणं प्रति कपालपरिमाणं कारणं, कपालपरिमाणं प्रति कपालिकायाः परिमाणं कारणम्, अनन्तरं चतुरणुकं कारणं, चतुरणुकपरिमाणं प्रति त्रयणुकं परिमाणं कारणं, त्रयणुकपरिमाणं प्रति द्वयणुकपरिमाणं कारणं, द्वयणुकं प्रति परमाणुकारणम्
इति. तत्र भगिनि, हा, तत्र पुनः किञ्चित् भेदः, यतोहि तत्र त्रयणुकस्य विषये एतावत् न उक्तं, तत्र तस्य परिमाणं परिमाणस्य कृते तत्र कारणं किम् इति, किन्तु तत्र त्रयणुके विद्यमानं परिमाणं, चतुरणुके विद्यमानं परिमाणं स्वजातीयपरिमाणमस्ति, मध्यमपरिमाणमस्ति. किन्तु द्वयणुके विद्यमानं परिमाणम् अणुपरिमाणमस्ति, त्रयणुके विद्यमानं परिमाणं मध्यमपरिमाणमस्ति, तर्हि स्वजातीय नास्ति.
स्वजातीय नास्ति इति कथं जि? तदपि घट परमाणोः
सत्यं सत्यम्. अतः तत्र करपत्रस्य इच्छा का इत्युक्ते, तत्र किं तत्र स्वरूपमहोदयस्य तत्र किमर्थं लिखितवान् इत्युक्ते, तत्र पुस्तके यद्दत्तमस्ति तत् तस्य पृष्ठभागे अनेके तत्र अनेके विषयाः सन्ति, येषां विश्लेषणं तत्र प्रौढग्रन्थे तत्र दत्तमस्ति, किन्तु तत्र उक्तमस्ति तावदेव इति मा चिन्तयतु. नाम अस्मिन् विषये बहु किमपि तत्र दीर्घचर्चा वर्तते प्रौढग्रन्थेषु द्रष्टव्या भवति एतत् सर्वं नाम प्रश्नः समीचीनः प्रश्नः समीचीनः इति न वदामि असमीचीनः इति न वदामि किन्तु उत्तरम् इदानीं तत्र तद् न दातुं तत्र न दातुं शक्नुमः यतोहि तत्र बहु किमपि तत्र अस्मिन् विषये चर्चा वर्तते तत्र नैयायिकाः यत्किमपि एकः वदति तस्य विषये चिन्तनं कृत्वा न तत्र एतत् किमर्थम् इति तत्र तत्र सिद्धान्तः सिद्धान्ती यत् वदति तस्य विरोधः पूर्वपक्षी करोति तत्र हा अहं न अङ्गीकरोमि इति तर्हि तत्र दीर्घा चर्चा वर्तते भगिनि हा अत्र केवलं तत्र
परन्तु इदानीम् एतादृशं निश्चितं कुर्मः जि तद् साध्यं वा इति पश्यतु तत्र त्रयणक पर्यन्तं वयं जानीमः तत्र कन्फ्यूषन् किमपि नास्ति परन्तु तत् त्रयणकं प्रति कारणं तद् अनुपरिमाणं तदेव स्वजातीयम् इति दत्तवन्तः अपि स्वजातीयम् इत्युक्ते अनुपरिमाणम् इति तद् साधु वा इत्येव त्रयणकं प्रति द्वयणकं कारणं वा न वा जि
न न भगिनि तत्र द्वयणकं त्रयणकं पदार्थस्तरे त्रयणकं प्रति द्वयणकं कारणमेव नाम तत्र समवायिकारणम् अस्ति समवायिकारणमस्ति द्वयणकं त्रयणकस्य किन्तु त्रयणके विद्यमानं परिमाणं प्रति असमवायिकारणं किम् इति प्रश्नः
महोदय प्रश्नः अत्र लिखितं द्व्यणुकपरिमाणमपि त्र्यणुकपरिमाणं प्रति कारणं न
कारणं एतावत् न पठितवन्तः अस्तु तर्हि पठामः तर्हि समीचीनं भगिनि सत्यं तर्हि तत्र पठामः भगिनि विमलभगिनि धन्यवादः तर्हि पठित्वा तत्र चर्चयामः तर्हि तर्हि तत्र अग्रे पद्मभगिनी भवती एव पठतु तर्हि एवमेव इति
एकनिमिषम् अहं करपत्रे पठामि एवमेव द्वयणुकपरिमाणम् अपि त्रयणुकपरिमाणं प्रति न कारणम् प्रथमतया स्वजातीयपरिमाणं न जनयति द्वयणुके अस्ति अणुपरिमाणं त्रयणुके तु उत्पद्यते किं महत् परिमाणम् इत्युक्ते मध्यमपरिमाणं तर्हि स्वजातीयपरिमाणजनकत्वं नास्ति द्वयणुकपरिमाणस्य अपि च पुनः सा एव समस्या यत् द्वयणुके विद्यमानपरिमाणम् अणुपरिमाणम् अतः तदपेक्षया उत्कृष्टम् इत्युक्ते इतोपि लघु अतः आहत्य द्वयणुकपरिमाणं त्रयणुकपरिमाणं प्रति न कारणम् अस्तु जि इदानीं मम प्रश्नस्य उत्तरम्
विमलभगिनी धन्यवादः अत्र एव उत्तरम् अस्ति किन्तु किन्तु नाम अस्मिन् विषये न्यायशास्त्रे बहु किमपि चर्चितं भवति अतः तत्र पुस्तके दत्तमस्ति तत् केवलं तत्र परिचयः तत्र कति जनाः न्यायशास्त्रे तत्र विद्वांसाः सन्ति ते अस्मिन् विषये एतेषु विषयेषु बहु किमपि चिन्तनं कृत्वा दीर्घचिन्तनं कृत्वा लिखितवन्तः सर्वे तत्र किं तत्र मेधावी इति वदामः खलु तत्र बहु किमपि तत्र तेषां शक्तिः तत्र मनसः शक्तिः तत्र चिन्तनशक्तिः बहु अधिका आसीत् तर्हि तत्र तेषां तत्र विवरणं सर्वं तत्र पठनमपि तत्र क्लिष्टकरमेव भवति किन्तु अत्र केवलम् उद्घाटनं तत्र पृष्ठभागे बहु किमपि वर्तते परिमाणस्य विषये इति अस्तु अग्रे धन्यवादः भगिनि पद्मभगिनी अस्तु अग्रे तत्र हा एतावत् तत्र हा तर्हि तत्र नरसिंहड्डे मध्ये अग्रे पठति वा
आं महोदय तदर्थम् अत्रापि उक्तं यत्र द्वयणुकत्रयं वर्तते तत्र द्वयणुकगतबहुत्वसङ्ख्या त्रित्वसङ्ख्या एव त्रयणुकपरिमाणं प्रति कारणं न तु द्वयणुके परिमाणं कारणं नो चेत् किं भवेत् त्रयणुकस्य अपि अणुपरिमाणं स्यात् येन त्रयणुकं न दृश्येत परन्तु तथा नास्ति त्रयणुकं तु दृश्यते अत्र तदेव अस्ति यत् वयं पूर्वं पठितवन्तः द्वयणुकस्य कृते तत्र द्वित्वम् इति सङ्ख्या कारणं भवति तादृशमेव अत्र त्रयणुकस्यापि द्वयणुकत्रयमस्ति चेत् तत्र त्रित्वं कारणं भवति
तत्र त्रयणुकं नाम परमाणुत्रयम् इति नास्ति खलु त्रयणुकं नाम
द्वयणुकस्य त्रि
तर्हि तत्र द्वयणुकत्रयम् इति भवति द्वयणुकमस्ति 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 तर्हि तेषां संयोगेन त्रयणुकं भवति तर्हि त्रित्वम् इति सङ्ख्या तेषु प्रत्येकस्मिन् तत्र द्वयणुके वर्तते सा सङ्ख्या एव कारणं त्रयणुकस्य परिमाणं प्रति
यदि तत्र द्वयणुकस्य परिमाणं त्रयणुकस्य परिमाणं प्रति कारणं भवति चेत् तत्र त्रयणुकमिति दृश्यते न एव
किमर्थं
द्वयणुकस्य अणुपरिमाणम् अस्ति
समीचीनं महोदय धन्यवादः अस्तु अग्रे तत्र चन्द्रमती भगिनी अग्रे पठति वा अतः इति
अतः तस्मिन् महत्त्वपरिमाणम् अस्ति अपि च तेन जायते इत्युक्तौ द्वयणुके विद्यमान त्रित्वसङ्ख्यया जायते द्वयणुकत्रयाणां संयोगेन खलु त्रयणुकम् उत्पद्यते
त्रयणुकं नाम परमाणुत्रयम् इति नास्ति द्वयणुकत्रयम् इति भवति चतुरणुकं नाम
त्रयणुकं द्वयणुकं त्रयणुकं साधु द्वयणुकत्रयाणां संयोगेन खलु त्रयणुकम् उत्पद्यते
अपि चतुरणुकं नाम किम् अस्ति
त्रयणुकचतुष्टयं
नाम द्वयणुकं नाम परमाणुद्वयं वर्तते
तादृशं चतुर् चत्वारि
इत्युक्ते एकः परमाणुः नाम परमाणुद्वयं त्रयणुकं नाम तत्र परमाणवः सन्ति अपि चतुरणुकं नाम तत्र चतुर्विंशतिपरमाणवः सन्ति तत्र चतुरणुके यतोहि त्रयणुकचतुष्टयं तेन तत्र चतुरणुकं भवति अग्रे भवनि
यदा पुरतः त्रीणि द्वयणुकानि सन्ति प्रत्येकस्मिन् त्रित्वसङ्ख्यया वर्तते आहत्य एकस्मिन् त्रयणुके विद्यमानमहत्परिमाणस्य कारणं द्वयणुके विद्यमानत्रित्वसङ्ख्यया
सङ्ख्या तत्र यदि प्रथमवारम् एतत् शृण्मः किञ्चित् विचित्रम् इति भासते खलु नाम किमर्थं तत्र परिमाणमेव कारणं नास्ति किन्तु सङ्ख्या अन्यत् एव कारणम् इति तत्र आलोचनेन तत्र चिन्तनेन अपि तत्र यत् सिद्धान्तं तत्र यत् आसीत् नाम तत्र स्वसजातीयस्वोत्कृष्टपरिमाणजनकत्वम् इति एव तत्र तादृशमेव भवेत् इति नियमः यः आसीत् तेन यदि चिन्तनं कुर्मः तदा एतत् सर्वं मनसि आगच्छति. तर्हि तत्र
तर्हि द्वयोः परिमाणयोः संयोगेन द्वयणुकं त्रयाणां द्वयणुकानां संयोगेन त्रयणुकम् उभयत्र कार्यभूतपरिमाणस्य कारणम् अवयवे विद्यमानसङ्ख्या परमाणौ द्वित्वसङ्ख्यया द्वयणुके त्रित्वसङ्ख्यया इत्यञ्च अणुपरिमाणं कस्यापि कारणं नास्ति.
तर्हि अशोकमहोदय पूर्वं तत्र आरम्भे भवान् उक्तवान् खलु तत्र प्रश्न भवतः प्रश्नः
आं महोदय
इदानीं तत्र
तेषां असम्प्शन् सम्यक् नास्ति इति अहं चिन्तितवान्.
न महोदय तत्र नाम किमपि ते चिन्तयन्ति तत्र तत्र किं तत्र कारणत्वम् इति तेन तत्र सन्तोषः न जायते तेषां कारणत्वं कीदृशम् इति अतः एव तत्र एतादृशं कारणम् एव तत्र ते स्वीकुर्वन्ति नाम स्वस्वजातीय स्वोत्कृष्टपरिमाणजनकत्वम् इति एव तत्र तादृशमेव तत्र कारणत्वं परमाणौ तत्र परिमाणे भवेत् इति तेषां चिन्तनम्. किन्तु अस्मिन् विषये तत्र समाप्त तत्र विषयः समाप्तः इति नास्ति. अस्मिन् विषये प्रायशः तत्र बहु किमपि अपि दत्तमस्ति महोदय. हा किन्तु अत्र केवलं परिचयः तावदेव.
अस्तु
नाम गभीरविषयः परिमाणम् इति तावदेव. अस्तु तर्हि अस्तु समयोपि जातः किन्तु इदानीं तत्र परमाणु द्वयणुकं त्रयणुकम् एतावत् तत्र कारणत्वं तत्र कीदृशम् इति एतत् सर्वं दृष्टवन्तः. अग्रे तत्र आकाशे तत्रापि तत्र आकाशे परिमाणं यदस्ति तत्र स्थितिः का इति अग्रे दत्तमस्ति किञ्चिदेव वर्तते. तदनन्तरं तत्र वयं प्रायशः तत्र अग्रे तत्र विषयः अस्ति तत्र असमवायि द्वितीय असमवायिकारणस्य वर्णनम् इति अस्ति तस्मिन् विषये अपि तत्र करपत्रं वर्तते. अतः तत्र अग्रिमे सप्ताहे तत्र एतस्य करपत्रस्य पठनं कृत्वा तत्र किञ्चित् अन्यत् करपत्रं यदस्ति तत्र तत् पठामः. द्वितीय असमवायिकारणस्य विषये अन्यत् करपत्रमपि भवति. अस्तु तर्हि बहु किमपि अतीतवन्तः अद्य समीचीनमस्ति. धन्यवादः. अग्रिमे वर्गे मिलामः.
महोदय प्रश्नः अस्ति.
अस्तु भगिनि
अत्र त्रित्वं भवेत् खलु न तु त्रत्वं. त्रत्वम् अपि अस्ति त्रित्वं
सत्यं भगिनि प्रायशः तत्र अत्र
धन्यवादः.
सत्यं भगिनि अस्तु धन्यवादः. नमस्कारः.
नमस्कारः
भगिनि.
धन्यवादः महोदय. नमस्कारः.
धन्यवादः. नमस्कारः.
नमस्कारः महोदय. धन्यवादः.